पश्यतु भावि संसारेऽस्मिन् णमुकार मंत्र महिमा नहि कर्तव्यम् अभिनयम् अस्य मंत्रस्य कदापि केनापि
नहि कर्तव्यम् अभिनयम् अस्य मंत्रस्य कदापि केनापि
पश्यतु भावि संसारेऽस्मिन् णमुकार मंत्र महिमा नहि कर्तव्यम् अभिनयम् अस्य मंत्रस्य कदापि केनापि
नहि कर्तव्यम् अभिनयम् अस्य मंत्रस्य कदापि केनापि
एका सत्या कथा प्रसिद्धा जिन शास्त्रेषु अद्यापि
जिन शास्त्रेषु अद्यापि
सर्वे भव्यः तां शृण्वन्तु मनः स्थीकृत्वा चापि
मनः स्थीकृत्वा चापि
अयम् अनादि निधनः मन्त्रः नमोकार महामन्त्रः नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
अस्मिन् समये एकं श्वानं कश्चित् दुहन्ति स्म
श्वानं कश्चित् दुहन्ति स्म
अर्धमृतो भूत्वा सः श्वानः ग्रामस्य मार्गिणे पतत्
ग्रामस्य मार्गिणे पतत्
तस्मिन् समये कोऽपि न तस्य मन्त्रेण विना मित्रः नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केना
कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
क्वापि नरः पादेन क्वापि पाषाणेन हत्वा गतवान्
पाषाणेन हत्वा गतवान्
नहि दयां कुर्वन्ति स्म च कोऽपि नरः दृष्ट्वा गतवान्
कोऽपि नरः दृष्ट्वा गतवान्
किन्तु तस्य पुण्यस्य बले महामन्त्रः तं प्राप्नोत् नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
तस्मिन् दिवसे एव तत्र राज्ञः पुत्रः अपि आगच्छत्
राज्ञः पुत्रः अपि आगच्छत्
सः जीवन्धर राजकुमारः करुणाभावेन भरितः
करुणाभावेन भरितः
तत्रैव तिष्ठत् सुकुमारः पशुमपि मन्त्रं ददात् नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि किना
कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
मन्त्रं श्रुत्वा सह त्रियं च महच्छान्तिभावेन मृतः च्युत्वा ततश्च पामर प्राणी देवा भूत्वा स्मृतिं कृतः पुनरागमत् स देवात्र मन्त्रं संस्मरणार्थं न हि कर्तव्यम् अविनयम् अस्य मन्त्रस्य कदापि केनापि
कुमारः श्वानं नीत्वा तत्रैव तिष्ठत् तावत् नाम सुदर्शन यक्षेन्द्रः सह देवः तं सविनयं नमत् आनन्दाश्रुभिः सावगत् हे राजनोपकारी नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
भवतः उपकारं भो देव कदापि विस्मरिष्यामि न यदा मां स्मरिष्यसि त्वं तदा आगमिष्यामि अहम् वारं वारं प्रणम्य शिरसा सह गत्वा स्वस्थाने न हि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि सर्वे भव्यः अमुं पठन्तु जपन्तु त्रैकालेऽपि च कथयदि इदं ज्ञानमति माता कुर्वन्तु जिनवर भक्तिं शिष्येयं चन्दनामतिः अपि मन्त्रोऽयं जपति न हि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि पश्यतु भाव्यसंसारेऽस्मिन् णमकार मन्त्रमहिमा न हि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि
नहि कर्तव्यम् अभिनयम् अस्य मन्त्रस्य कदापि केनापि